सर्वेभ्यो नमस्कारः. गतसप्ताहे वयम् आत्मनेपदी धातूनाम् अभ्यासः कृतवन्तः, कथामपि पठितवन्तः, अपि करपत्रे आत्मनेपदिनः दातवः इति करपत्रं यदस्ति, ईमेल् द्वारा अपि अहं पुनरेकवारं लिङ्क् प्रेषितवान्. तत्र वयम् अभ्यासं कृतवन्तः. तत्र करपत्रे यत् अस्ति अथवा पुस्तके अपि यदस्ति गीतासोपाने, पेज् 48, अत्र आत्मनेपदी धातूनां लट् लकाररूपस्य अभ्यासं कृतवन्तः वयं. तत्र वर्तते इति तस्य क्रियापदस्य रूपाणि एकवारम् अहं वदामि. वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्धेते, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे इति. तदेव विषयः तत्र अभ्यासद्वयम् आसीत्. तत्रापि तदेव विषयः आत्मनेपदी धातूनाम् उपयोजनं कृत्वा गृहपाठम् इति. तत्र गृहपाठः आसीत् अभ्यासद्वयं पुटसङ्ख्या 49 मध्ये. तत्र कः तत्र पठितुम् इच्छति? सरला भगिनी तत्र पठितुम् इच्छति वा? अत्र तृतीय अभ्यासः इति पुटसङ्ख्या 49 मध्ये. सरला भगिनी, अस्तु. नरेश महोदय पठति वा?
आम्,
अस्तु.
एतेषु वाक्येषु परस्मैपदी क्रियापदानि प्रयुक्तानि सन्ति. तत् मानार्थकानि आत्मनेपदी क्रियापदानि कोष्ठके दत्तानि सन्ति. ततः उपितं क्रियापदं चित्वा रिक्तस्थाने लिखत. उदाहरणं, वयं भारतमातरं प्रणमामः, वन्दामहे.
तत्र पुनरेकवारं नरेश महोदय, पुनरेकवारं तत्र वयं भारतमातरं प्रणमामः, तत्र वन्दामहे इति उचितं आत्मनेपदी क्रियापदम् इति दत्तमस्ति. इदानीं वाक्यं किं भवति? एकवारं तत् पूर्णवाक्यं.
वयं उत्तमपुरुष बहुवचनं भारतमातरं द्वितीय
कर्मपदमस्ति.
प्रणमामः, प्रणमते,
प्रणमति, प्रणमति, प्रणमति.
बहुवचनं उत्तमपुरुषः प्रणमामः.
इदानीं वन्दामहे इति तस्मिन् स्थाने अस्ति चेत् वाक्यं किं भवति?
वयं भारतमातरं वन्दामहे.
हा, इदानीं समानार्थकवाक्यमस्ति. वयं भारतमातरं प्रणमामः अथवा वयं भारतमातरं वन्दामहे, अर्थसमानमस्ति, सामान्यमस्ति अत्र. इदानीं द्वितीयम् अपि.
ईश्वरः भक्तान् कष्टात् रक्षति. ईश्वरः कर्तृपदं, भक्तान् कर्मपदं, द्वितीयवचनं बहुवचनं. द्वितीयविभक्ति बहुवचनं. कष्टात् पञ्चमी विभक्ति. रक्षति क्रियापदं. समानार्थक त्रायते.
हा, समीचीनम्, अस्तु.
ईश्वरः भक्तान् कष्टात् त्रायते.
हा, समीचीनं महोदय, समीचीनं, बहु समीचीनम्. चिन्ता मास्तु भगिनि. रमाजयन्ती भगिनी नमस्कारः.
विलम्बेन क्षम्यताम्.
चिन्ता मास्तु भगिनि, अस्तु. हा, अस्तु. इदानीं नरेश महोदय धन्यवादः. सरला भगिनी इदानीं पठति वा?
यूयं किं चिन्तयथ
यूयं मध्यमपुरुष बहुवचनं किम् अस्ति कर्मपदम् एकवचनं चिन्तयत इति मध्यमपुरुष बहुवचनक्रियापदम् अस्ति परस्मैपदी तस्य समानार्थकं भवति मन्यध्वे यूयं किं मन्यध्वे आत्मनेपदी भवति
समीचीनं भगिनि अस्तु अग्रिममपि करोतु
तौ आकाशं पश्यतः तौ अस्ति द्विवचनं प्रथमपुरुष प्रथमाविभक्ति द्विवचन स तौ ते तौ आकाशं भवति कर्मपदम् एकवचनं पश्यतः प्रथमपुरुष द्विवचनं परस्मैपदी तस्य समानार्थकं पदम् आत्मनेपदी अस्ति वीक्षेते तौ आकाशं वीक्षेते
समीचीनं भगिनि अस्तु अस्तु इदानीं रामनाथ महोदय पठति वा अग्रे
युवां सत्यं वदतः युवां युवां सत्यं वदतः युवां सत्यं भाषेते
भाषेते अस्तु तत्र युवां कीदृशपुरुषः अस्ति तत्
युवां मध्यमपुरुष बहुवचनं सत्यं कर्मपदं
युवां युवाम् इति अस्ति महोदय
त्वं
मध्यमपुरुष इति सत्यं
त्वं मध्यमपुरुष द्विवचनं
समीचीनं महोदय तत्र युवाम् इति कर्तृपदं समीचीनं
सत्यम् इति
सत्यं कर्मपदं
भाषेते
इदानीं क्रियापदं समीचीनं महोदय
समीचीनं
भाषेते इति आत्मनेपदीरूप क्रियापदं समीचीनं महोदय इदानीम् अग्रिमं
बालिकाः चित्रं दृष्ट्वा
तुष्यन्ति
बालिकाः प्रथम बहुवचनं चित्रं कर्मपदं दृष्ट्वा युक्त्वा युक्तवन्तं मोदन्ते
समीचीनं महोदय
मोदन्ते
क्रियापदम् अस्तु इदानीं वाक्यं किं भवति
बालिकाः चित्रं दृष्ट्वा मोदन्ते
समीचीनं महोदय धन्यवादः धन्यवादः समीचीनम् अस्ति
धन्यवादः
सन्ध्या भगिनी पठ वक्तुम् इच्छति वा भवती
आम्
अस्तु
अहं देवं प्रणमामि तर्हि वन्दे प्रणमामि समानं सन्ति
समानार्थकपदं समीचीनं समानार्थक्रियापदम् इदानीं
तर्हि अहं देवं वन्दे
समीचीनं भगिनि अत्र अहम् इति कीदृशपदं कर्तृपदं वा कर्मपदं वा
अहं कर्तृपदं देवं कर्मपदं
वन्दे
वन्दे क्रियापदम्
क्रियापदं समीचीनं भगिनि अग्रिमं
वयं विश्वशान्तिम् इच्छामः तर्हि इच्छामः मोदशब्दः वा
न भगिनि अत्र कथायां भवती स्मरति इति मन्ये द्रौपदी समीचीनं भगिनि समीचीनं भगिनि अस्तु
वयं विश्वशान्तिं कामयामहे
इदानीं वयम् इति कर्तृपदं
कर्तृपदं कर्मपदं विश्वशान्तिं क्रियापदं कामयामहे
इदानीं वयम् इति पुरुषः कः तस्य पदस्य पुरुषः कः प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष
उत्तमपुरुष बहुवचनं
बहुवचनं समीचीनं भगिनि धन्यवादः हा बहु समीचीनम् अस्तु हा भानु भगिनी अग्रे वदति वा
आं महोदय ते मार्गे सन्ति ते मार्गे वर्धन्ते ते सह तौ ते सह तौ ते प्रथमपुरुष बहुवचनं कर्तृपदं सन्ति क्रियापदं मार्गे सप्तमी विभक्ति वा महोदय
हा समीचीनं भगिनि सप्तमी विभक्ति तत् कर्मपदं नास्ति अस्ति अकर्मक्रियापदम् अस्ति अतः तत्र कर्मपदं नास्ति मार्गे इति सप्तमी विभक्ति समीचीनं भगिनि हा इदानीं हा इदानीं वर्तन्ते इति उपयुज्य वाक्यं वदतु एकवारं
ते मार्गे वर्धन्ते
वर्तन्ते वर्तन्ते
वर्तन्ते
हा वर्तन्ते हा समीचीनं भगिनि बहु समीचीनम् अग्रे
तं कीर्तिं कीर्तिं प्राप्नोषि तं मध्यमपुरुष मध्यमपुरुष एकवचनं
समीचीनं भगिनि कर्तृपदं
कर्तृपदं प्राप्नोषि समानार्थकपदं लभसे त्वं कीर्तिं लभसे
लभसे वदतु भगिनि
कर्तृपदं लभसे क्रियापदं
हा समीचीनं भगिनि बहु समीचीनं कीर्तिं कर्मपदं लभसे क्रियापदं बहु समीचीनं भगिनि धन्यवादः हा अत्र रघुपतिमहोदय तत्र रघुपतिमहोदय अत्र तृतीय अभ्यास यत् अस्ति रक्तवर्णे यत् वाक्यानि नरेश महोदय पठितवान् तत् पुनरेकवारं तदेव पठित्वा तत्र किं किम् अस्ति वाक्ये इति एकवारं वदतु महोदय तत्र एतेषु वाक्येषु
एतेषु वाक्येषु वयं भारतमातरं प्रणमामः
न केवलं रक्तवर्णे यद् वाक्यं यानि वाक्यानि सन्ति
लभसे वन्दे एते वा
अत्र रक्तवर्णे रेड् कलर् महोदय
एतेषु वाक्येषु परस्मैपदिक्रियापदानि युक्तानि सन्ति तत् समानार्थकानि आत्मनेपदिक्रियापदानि कोष्टके दत्तानि सन्ति ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत इति
हा तत् तत्र किं किम् अस्ति प्रत्येकस्मिन् वाक्ये किं किम् अस्ति इति एकवारं किञ्चित् वक्तुं
ओके 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 एतेषु वाक्येषु एतेषु वाक्येषु एतेषु वाक्येषु सप्तमी विभक्ति विभक्ति बहुवचन अस्ति परस्मैपदिक्रियापदानि परस्मैपदिक्रियापदानि इत्युक्ते बहुवचन अस्ति प्रथम बहुवचनं
प्रथमविभक्ति
प्रयुक्तानि सन्ति प्रयुक्तानि अपि प्रयुक्तं प्रयुक्तानि अपि बहुवचनं प्रथमाविभक्ति सन् बहुवचन सन्ति अस्ति इति बहुवचन अस्ति सन्ति तत् समानार्थकानि आत्मनेपदिक्रियापदानि समानार्थकानि आत्मनेपदिक्रियापदानि बहुवचन अस्ति कोष्टके दत्तानि सन्ति कोष्टके कोष्टके इत्युक्ते कोष्टके सप्तमी विभक्ति
कृष्णवर्णे यदस्ति तत् कोष्टकं
कोष्टके सप्तमी विभक्ति दत्तानि सन्ति कोष्ठके दत्तानि सन्ति क्रियापदानि अतः समानार्थक अतः बहुवचनमस्ति दत्तानि सन्ति ततः कर्मपद सारि कर्तृपद बहुवचनमस्ति अतः दत्तानि सन्ति ततः ततः फ्रम् देर् ततः उचितं क्रियापदं चित्वा चित्वा लगन्तं चित्वा त्वान्तरूपं सारि त्वान्त चित्वा इत्युक्ते चित्वा सिलेक्ट् किं समानार्थकपद अस्ति महोदय चित्वा
समीचीनं
ओके रिक्तस्थाने लिखत रिक्तस्थाने लिखत 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 लिखतु इति
लिखतु यत्र यत्र रिक्तस्थानम् अस्ति तत्र ब्लाङ्क् अस्ति तत्र लिखतु समीचीनं महोदय पुनरेकवारं यत् भवान् उक्तवान् तदेव अहमपि वदामि तदनन्तरं भवान् एव अत्र चतुर्थाभ्यासः तत्र करोतु एकनिमिषः एतेषु वाक्येषु तत्र अधोभागे एतानि वाक्यानि वाक्यानि सन्ति तस्मिन् तेषु वाक्येषु अतः एतेषु वाक्येषु परस्मैपदीक्रियापदानि प्रयुक्तानि सन्ति तत्र सर्वत्र किम् अस्ति प्रणमामः रक्षति इति अस्ति कीदृशक्रियापदानि सन्ति ते तानि सर्वाणि परस्मैपदीक्रियापदानि सन्ति तानि सर्वाणि क्रियापदानि प्रयुक्तानि तस्य प्रयोजनं कृतम् अस्ति अतः प्रयुक्तानि भवति विशेषणं परस्मैपदीक्रियापदानि विशेष्यं भवति सन्ति क्रियापदं तत्र कीदृश कीदृशं क्रियापदं पश्यामः तत्र सर्वत्र तत्र परस्मैपदीक्रियापदमेव पश्यामः तत् समानार्थकानि तत् समानार्थकम् इत्युक्ते परस्मैपदीक्रियापदं यद् अस्ति तस्य समानार्थक क्रियापदं किन्तु आत्मनेपदीक्रियापदं कोष्टके दत्तानि सन्ति कोष्टके सप्तमीभक्ति इन् द टेबल् इन् द बाक्स् इति तत्र तत् समानार्थकानि इति विशेषणं भवति आत्मनेपदीक्रियापदानि विशेष्यं भवति कोष्टके दत्तानि दत्तानि अपि विशेषणं भवति आत्मनेपदीक्रियापदानि अस्तु सन्ति ततः ततः इत्युक्ते किं कोष्टकम् अस्ति कोष्टकात् इति पञ्चमीभक्तिर्भवति कोष्टकात् ततः अथवा कोष्टकात् उचितं क्रियापदं चित्वा उचितं क्रियापदं चित्वा इति क्रियापदं भवति उचितं क्रियापदं भवति कर्मपदं किं चित्वा उचितं क्रियापदं चित्वा रिक्तस्थाने यत्र डाट्स् अस्ति तत् रिक्तस्थानं ब्लाङ्क् इति तत्र लिखतु इति अस्ति अस्तु तदेव अत्र यदि यदा अभ्यासं कुर्मः यत् डिस्क्रिप्शन् अस्ति तद् बहुवारं यदि पठामः तस्य रूपं कीदृशम् इति अवगच्छामः चेत् बहु लाभः भवति तत्र एव अनेकाः विषयाः सन्ति तस्य अवगमनं भवति चेत् बहु सौकर्यं भवति अस्तु रघुपतिमहोदय भवानेव कृपया अग्रिममपि पठित्वा तत्र प्रथमं द्वितीयं करोतु
प्रथमं वाक्यम् अवधानेन पठत द्वितीयवाक्यस्य कर्तृपदं दृष्ट्वा वाक्यानि परिवर्तयत उदाहरणं सर्वे विजयं कामयन्ते अत्र कामयन्ते आत्मनेपदीरूपम् अस्ति अहं विजयं कामये उत्तमपुरुष बहुवचनरूप अस्ति
अतः अत्र अभ्यासः किम् अस्ति महोदय केवलम् आत्मनेपदी धातूनां पुरुष अपि तस्य परिवर्तनं करणीयम् अस्ति
वचनम् अपि यूयं नितरा मोदध्वे अत्र यूयं नितरा मोदध्वे बहुवचन मध्यमपुरुष बहुवचन अस्ति अत्र अत्र तौ 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 प्रथमपुरुष द्विवचन अस्ति तौ नितरां मोदेते मोदेते
समीचीनं
दुर्योधनः आचार्यम् उपसङ्गच्छन् उपसङ्गच्छते प्रथमपुरुष एकवचनम् अस्ति त्वं द्वितीय मध्यमपुरुष एकवचनम् अस्ति अतः त्वम् आचार्यम् उपसङ्गच्छसे
हा समीचीनं महोदय धन्यवादः धन्यवादः समीचीनं महोदय अस्तु रमाजयन्ती भगिनी अग्रे पठति वा
आं महोदय एताः संस्कृतेन भाषन्ते एताः बहुवचनं सो यूयं यूयं
एताः बहुवचनम् अस्ति किन्तु पुरुषः कः
प्रथमपुरुषः
समीचीनं
सो यूयं उत्तमपुरुषः बहुवचनम् अस्ति
यूयं यूयं यूयं
सारी यूयं मध्यमपुरुष बहुवचनं अस्ति सो यूयं संस्कृतेन भाषद्वे
हा समीचीनं भगिनि द्वे इति
यूयं संस्कृतेन भाषद्वे
हा समीचीनं भगिनि
बालाः कथ्यन्ते बालाः बहुवचनं प्रथमपुरुष भवन्तौ द्विवचनं मध्यमपुरुष
भवन्तौ 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 प्रथमपुरुष भगिनि
प्रथमपुरुष अस्ति
भवान् भवान् गच्छति इति एव अस्ति
ओ ओके भवन्तौ प्रथमपुरुष द्विवचनं भवन्तौ स्पर्धेते
समीचीनं भगिनि हा समीचीनं तदेव अस्ति
धन्यवादः
समीचीनं भगिनि हरि महोदय
के युद्धात् पलायन्ते के बहुवचनं प्रथमपुरुष
बहुवचनं
युद्धात् पञ्चमी विभक्ति
समीचीनं
पलायन्ते बहुवचनं आत्मनेपदी कौ
कः कौ
प्रथमपुरुषः द्विवचनं
समीचीनं
तौ युद्धात् पलायेते
पलायेते समीचीनं
वयं धर्मरक्षणं अपेक्षामहे उत्तमपुरुषः बहुवचनं आवाम् उत्तमपुरुषं द्विवचनं आवां धर्मरक्षणं अपेक्षाबहे
समीचीनं महोदय धन्यवादः तत्र किं भवति यदि क्रिया यदि तत्र केवलं कर्तृपदस्य परिवर्तनं भवति वाक्ये अतः किं भवति क्रियापदस्य परिवर्तनम् अपि भवति किन्तु कर्मपदं वा अथवा अन्यपदं पञ्चमीविभक्तिरूप पञ्चमीविभक्तान्तपदं वा तस्य कस्यापि पदस्य परिवर्तनं न भवति केवलं क्रियापदस्य एव
क्रियापदं केवलं परिवर्तनं
करणीयम् अस्ति समीचीनं महोदय समीचीनम् अस्तु रामनाथ महोदय अग्रे करोति वा अस्तु सरला भगिनी
आं महोदय सः चमूं वीक्षते सः प्रथमपुरुष एकवचन चमूं कर्मपदं द्वितीया विभक्तिम् एकं वचनं वीक्षते आत्मनेपदे प्रथमपुरुष एकवचन युवाम् अस्ति मध्यमपुरुष द्विवचन युवां चमुं वीक्षेथे
समीचीनं भगिनि
त्वं स्यन्दने विराजसे त्वं भवति मध्यमपुरुष एकवचन स्यन्दने भवति सप्तमी विभक्ति एकवचन विराजसे भवति मध्यमपुरुष एकवचन आत्मनेपदी ते भवति उत्तम प्रथमपुरुष बहुवचने ते स्यन्दने विराजन्ते
समीचीनं भगिनि धन्यवादः अस्तु सन्ध्या भगिनी अग्रे
क्षत्रियः युद्धं लभते भवन्तः शब्द बहुवचनं प्रथम
पुरुषः
प्रथमपुरुषः अस्ति तर्हि भवन्तः युद्धं लभन्ते
समीचीनं भगिनि क्षत्रियः भवन्तः द्वयमपि प्रथमपुरुषः किन्तु क्षत्रियः वचनं किं
क्षत्रियः एकवचनम्
एकवचनं तत्र विसर्गः अस्ति किन्तु कथं जानीमः तत् एकवचनम् इति क्षत्रियः इति अस्ति
लभते एकवचनं
क्रियापदं समीचीनं भगिनि लभते इति तद्दृष्ट्वा वयं जानीमः कर्तृपदस्य वचनं पुरुषः पुरुषमपि जानीमः लभते इति एकवचने अस्ति अतः क्षत्रिय अपि एकवचनम् अस्ति समीचीनं भगिनि अग्रे
ते महीं भुञ्जते
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 ते महीं भुञ्जते किमर्थं भुञ्जते एकवचनशब्दः वा
न तत्र ते इति अस्ति खलु भगिनि तत्र वयं दृष्टवन्तः तत्र तत् विशेषक्रियापदानि सन्ति खलु तत्र पेज् 39 पश्यतु तत्र ते इति किं भवति भगिनि सः तौ ते अस्ति अथवा द्विवचनं भवति किन्तु तत्र भुञ्जते इति अस्ति अतः ते तु एकवचनं वचने नास्ति खलु एकनिमिष रामनाथ महोदय एकनिमिषः सन्ध्या भगिनि एकवारं तत्र पेज् 39 पश्यतु तत्र तत्र किम् अस्ति तत्र तत्र एतत् पश्यतु होता जुहोति धाता ददाति इति अस्ति खलु पेज् 39 मध्ये कोष्टके तत्र अन्तिम भागः होता जुहोति धाता ददाति एषः बध्नाति पश्यति खलु तत्र तत्र बहुवचनरूपं किम् अस्ति पश्यतु तत्र अस्ति तादृश अस्ति भगिनि तत्र बहुवचने अस्ति किन्तु नकारः नास्ति तत्र
ओ अस्तु ओके एषः अपि बहुवचने भुञ्जते
भुञ्जते
तर्हि अत्र त्वं मध्यमपुरुष एकवचनं ते ऐ मीन् त्वं महीं पुञ्जसि
पुञ्जसे तत्र प्रायशः तत्र रूपम् एतद् भुञ्जसे इति स्वीकुर्मः भगिनि अग्रे
अहं दृष्टवती भुङ्क्ते भुञ्जाते भुञ्जते भुङ्क्ते भुङ्क्षे भुञ्जथे
भुङ्क्षे
भुञ्जे भुञ्जवहे भुञ्जमहे रुधादिगणमस्ति सप्त
आमामां सत्यं सत्यं तत्र त्वम् इति तस्य रूपम् एकवारं वदतु भगिनि
भुङ्क्षे
भुङ्क्षे भुङ्क्षे या सन्ध्या भगिनि एतत् किञ्चित् विशेषम् अस्ति भगिनि यथा तत्र लट् लकारे एव विशेषम् अस्ति खलु तत् साधारणक्रियापदं नास्ति खलु रूपं नास्ति खलु अतः तत्र उत्तरमपि किञ्चित् तत्रापि विशेषम् अस्ति चिन्ता मास्तु अग्रिमं करोतु तत्र
कः विषयान् उपसेवते कः एकवचनशब्दः तौ प्रथमपुरुष बहु द्विवचनं तर्हि
तत्र कः अस्ति विषयान् बहुवचनं द्वितीयविभक्ति उपसेवते क्रियापदम् इदानीं तौ इति अस्ति पुरुषः कः तत्र
प्रथमपुरुष द्विवचनं तौ विषयान् उपसेवते
समीचीनम् समीचीनं तौ विषयान् उपसेवेते इति समीचीनं भगिनि अग्रिमं
सर्वे भगवतः मार्गम् अनुवर्तन्ते
अनुवर्तन्ते इति अस्ति अतः
बहुवचनशब्दः
बहुवचनम् इदानीं प्रथमपुरुष बहुवचनम् इदानीं वयम् अस्ति तद्
वयम् उत्तमपुरुषः बहुवचनम्
इदानीं रूपं किम् तत्र सर्वे इति कर्तृपदमस्ति भगिनि
अस्तु तर्हि तर्हि वयं भगवतः मार्गम् अनुवर्तामहे
समीचीनं भगिनि पुनरेकवारं वदतु वाक्यं
वयं भगवतः मार्गम् अनुवर्तामहे
तत्र भगवतः इति षष्टिविभक्तिः अस्ति भगवान् भगवतः भवान् भवतः भगवान् भगवतः भगवतः मार्गं कस्य मार्गं भगवतः मार्गम् अनुवर्तामहे अस्तु समीचीनं भगिनि धन्यवादः तत्र भुञ्जते तत् त्यजामः इदानीं मास्तु तद्विशेषरूपम् अस्ति मास्तु स अन्यत् समीचीनमस्ति भगिनि धन्यवादः इदानीम् एकवारं तत्र पेज् पुटसङ्ख्या 48 तत्र रूपम् आत्मनिपदिरूपं केवलम् एकवारं पश्यामः तत्र उत्तमपुरुषे एदे एदावहे एदामहे अथवा सहे सहावहे सहामहे इति अस्ति तत्र प्रथमपुरुषे एकवचने अथवा द्विवचने तयोः मध्ये कः भेदः प्रथमपुरुषरूपे आत्मनिपदी धातु लट्लकारे प्रथमपुरुषः एकवचनं द्विवचनं कः भेदः तत्र रामनाथ महोदय अथवा रम कः उक्तवान् अथवा उक्तवती रमजयन्ती भगिनी वदतु वदतु कः भेदः तत्र तत्र किं भवति तत्र भेदः कः
भेदः मध्यम अक्षरे एधा एधे
अतः मध्ये अन्ते ते एव अस्ति तत्र एदते अन्ते ते अस्ति एदेते ते एव अस्ति किन्तु तस्य पूर्व अक्षरं किं भवति दकारः अस्ति अत्र एकारः धे इति अस्ति अतः एकारः आगच्छति द्विवचने सत्यं वा
सत्यं महोदय बहुवचन अपि ते अस्ति मध्य अक्षरे भेदम् अस्ति सो एकवचनं बहु एकवचनं द्विवचनं बहुवचनं मध्य अक्षरे भेदम् सन्ति
तत्र एदा अस्ति एधे अस्ति एधन्ते इति अस्ति
हन्ते
तत्र
समानमस्ति
ते पूर्वं किं भवति इन् इति भवति तत्र एदते तदनन्तरं किं करणीयम् एकारः मध्ये स्थापनीयम् एधेते इति भवति तदनन्तरं एकारः न एदते इति स्वीकृत्य मध्ये इन् इति स्थापयामः चेत् एधन्ते इति वर्तते अस्ति एकारः मध्ये स्थापयामः वर्तेते इति भवति मध्ये इन् इति स्थापयामः वर्तन्ते इति भवति तदनन्तरम् एदसे एदेते एदद्वे तत्र मध्यमपुरुषे एकारः एव अस्ति सर्वत्र एकारः एव अस्ति अतः आत्मनेपदी धातुरूपं सर्वत्र एकारः एव अस्ति अन्यत् कोऽपि वक्तुमिच्छति वा तत्र भेदः अथवा किमपि कोऽपि अंशः यद् उपयोगकरः इति कोऽपि मन्यते इति आत्मनेपदी धातुविषये अस्तु यदि अन्य कोऽपि नास्ति चेत् रामनाथ महोदय अग्रे अग्रिमपुटे यत् अस्ति तद् कृपया पठतु लोट् लकारः इति नूतनविषयः इदानीम्
एतत् सम्भाषणम् एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च
अत्र अन्य कोऽपि तत्र पठति वा रामनाथ महोदय भवान् पिता भवतु नरेश महोदय नरेश महोदय भवान् पुत्रः अस्तु
अस्तु अत्र आगच्छ
किं
गीतापुस्तकम् आनय
अस्तु
अत्र उपविश प्रथमं कृष्णं स्मर प्रार्थनां कुरु ज्ञानश्लोकं पठ उच्चैः वद
कं श्लोकं पठामि
प्रथमं श्लोकं पठ
भवान् कृपया एतस्य अर्थं विवृणोतु
विवृणोमि श्रद्धया शृणु अत्र पश्य
कुत्र पश्यामि
पुस्तकस्य अष्टमं पृष्ठं तद् पृष्ठं वृक्षस्व
अग्रे किं करवाणि
एतं श्लोकं पञ्चवारं पठ
भवान् कृपया पाठयतु अनन्तरम् अहं प्रयतै
तथैव पुरुष्व आरभावहे
अस्तु
धन्यवादः अस्तु तत्र लोट् लकारः इति अस्ति लोट् लकारः इत्युक्ते आज्ञा अथवा प्रार्थना इति भवति अत्र रूपभेदः भवति तत्र लोट् लकारस्य रूपं कीदृशम् इति अग्रे तत्र परस्मैपदीरूपम् अस्ति अपि आत्मनेपदीरूपम् अपि अस्ति तत्र एकवारं यत् रूपं पश्यामः पेज् 52 मध्ये तत्र रूपम् अस्ति पठतु इति पठ् दातु रूपं दत्तमस्ति तत्र हरिमहोदय एकवारं पठति वा तत्र कोष्टकं यदस्ति पेज् 52 मध्ये पठतु इति
पेज् 52 वा
तत्र भवान् पठतु इति यदस्ति कोष्टकं टेबल् उपरि
भवान् पठतु प्रथमपुरुष एकवचन
केवलं भवान् पठतु भवन्तौ पठतामिति तादृश
प्रथमपुरुष द्विवचनं भवन्तौ पठताम् प्रथमपुरुष बहुवचनं भवन्तः पठन्तु मध्यमपुरुष एकवचनं त्वं पठ द्विवचनं युवां पठतम् बहुवचनं यूयं पठत उत्तमपुरुषम् एकवचनम् अहं पठानि द्विवचनम् आवां पठाव बहुवचनं वयं पठाम
समीचीनं धन्यवादः महोदय अत्र अस्तु अत्र तदेव रूपमस्ति लोट् लकारः इति वदामः वर्तमानकालरूपस्य नाम अस्ति लट् लकारः एतत् लोट् लकारः इति अस्ति तत्र वत्स इदानीं पेज् 50 तत्र यत् सम्भाषणं श्रुतवन्तः तदेव पुनरेकवारं पश्यामः तत्र एकं प्रथमं तत्र यत् वाक्यम् अस्ति एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च तत्र पठत अवगच्छत इति कीदृशक्रियापदम् अस्ति तदपि लोट् लकारः एव अस्ति लोट् लकारः किन्तु पुरुषः वचनं किम् मध्यमपुरुष मध्यमपुरुष बहुवचनं पट इति अस्ति चेत् एकवचनं पठति बहुवचनं
मध्यमपुरुष
समीचीनं इदानीं पश्यामः वत्स अत्र आगच्छ तत्र आगच्छ इति रूपं किम् अस्ति पुरुषवचनं मध्यमपुरुष एकवचनं तत्र अत्र त्वम् आगच्छ वत्स अत्र त्वम् आगच्छ इति अस्ति पुत्रः अस्ति खलु अत्र भवान् इति नास्ति तत्र केवलं त्वम् आगच्छ इति अस्ति पुत्रः वदति किं गीतापुस्तकम् आनय आनय किम् अस्ति पुनः मध्यमपुरुष एकवचनं तत्र प्रथमपुरुष एकवचनं किं भवति आनय इति स्थाने आनयतु भवान् आनयतु किन्तु त्वम् आनय अत्र अस्तु इति अस्ति तद् एक इदानीं तस्य विषयं न भवतु अग्रे पश्यामः अस्तु ओके इति सः वदति न न अग्रे अग्रे प्रथमपुरुषे एकवचनं वा सत्यं सत्यं अग्रे पश्यामः किमर्थम् इति किन्तु अस्तु सत्यमेव तदनन्तरम् अत्र उपविश तद् तत्रापि मध्यमपुरुष एकवचनं तत्र भवान् इति अस्ति चेत् भवान् उपविशतु इति भवति अत्र त्वम् उपविश प्रथमं कृष्णं स्मर प्रार्थनां कुरु ध्यानश्लोकं पठ उच्चैः वद तत्र सर्वे अवगच्छन्ति इति मन्ये खलु उपविश प्रथमं कृष्णं स्मर प्रार्थनां कुरु ध्यानश्लोकं पठ उच्चैः वद इदानीं कं श्लोकं पठानि अहं कं श्लोकं पठानि पठानि पश्यामः तत्र उत्तमपुरुष एकवचनमस्ति पठानि इत्युक्ते विच् श्लोक शुड् ऐ रीड् पठानि सो एतत् प्रार्थना इव अस्ति अथवा आदेशः अस्ति तत्र उत्तमपुरुषरूपम् अपि अस्ति वाट् शुड् ऐ रीड् विच् श्लोक शुड् ऐ रीड् कं श्लोकं पठानि तत्र गच्छानि इति अस्ति अहं वर्गे अस्मि, किन्तु इदानीम् अहं मया गन्तव्यम् अस्ति, अतः अहं सर्वेषां पृच्छामि, अहं गच्छामि वा, केन् ऐ गो नौ इति. तत्र अहं गच्छामि वा इति प्रश्नरूपं भवति, अहं गच्छामि वा, केन् ऐ गो. तत्र कं श्लोकम् अहं पठामि, विच् श्लोकं शुड् ऐ रीड् इति. प्रथमं श्लोकं पठ, तत्रापि मध्यमपुरुषे एकवचनं, भवान् कृपया एतस्य अर्थं विवृणोतु. हा, इदानीं प्रथमपुरुष एकवचनं विवृणोतु, तु इति अन्ते अस्ति, एकवचनम् इति जानीमः. इदानीं विवृणोमि, श्रद्धया शृणु, अत्र पश्य. तत्र शृणु इति अस्ति, अत्र पश्य, तदपि मध्यमपुरुष एकवचनरूपम् अस्ति. अस्तु, तदनन्तरं कुत्र पश्यामि,
मध्यमपुरुष नास्ति वा, प्रथमपुरुष
कुत्र भगिनि,
शृणु,
श्रद्धया शृणु, श्रद्धया शृणु, अत्र पश्य. हा, तत्र
विशेष,
हा, तत्र तदपि त्वमेव अस्ति भगिनि तत्र, किन्तु हा, तत्र त्वमेव अस्ति किन्तु रूपं किञ्चित् साधारणरूपम् एवम् इदानीं दृष्टवन्तः वयं, पठतु पठताम् एतत् साधारणरूपम् अस्ति, विशेषक्रियापदमस्ति चेत् तत्र किञ्चित् भेदः भवति. इदानीं यत् अस्ति, प्रथमं साधारणरूपम् अवगच्छामः, तदनन्तरं कः विशेषः इति अग्रे पश्यामः. सम्यक् वा भगिनि, सन्ध्या भगिनि, अस्तु. कुत्र पश्यामि, वेर् शुड् ऐ सी, पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व. इदानीं वीक्षस्व इति अस्ति, तद् कीदृश पुरुषः अस्ति तत्र, तत्र 52 मध्ये तु स्व इति अन्ते नास्ति, पठाव इति अस्ति, पठाम इति अस्ति, किन्तु इदानीं पेज् 55 पश्यामः, हा, मध्यमपुरुष एकवचनं, किन्तु इदानीं किम् अस्ति, एतत् आत्मनिपदि धातु अस्ति, वीक्षे इति अस्ति खलु, वीक्षते वीक्षे इति, अतः तत्र वन्दतां वन्देताम् इति अस्ति, तत्र वीक्षस्व इति वन्दस्व इति. अस्तु, एतत् सम्भाषणं कृत्वा तत् कोष्टकम् एकवारं पश्यामः, पुनः अग्रे किं करवाणि, नौ वाट् शुड् ऐ डू, आफ्टर् दट् वाट् शुड् ऐ डू, एतं श्लोकं पञ्चवारं पठ, त्वं पञ्चवारम् एतत् श्लोकं पठ, एतत् श्लोकं कर्मपदं, पठक्रियपदं, त्वं कर्तृपदं, भवान् कृपया पाठयतु, टीच्, प्लीस् टीच् मी, कृपया पाठयतु, अनन्तरम् अहं प्रायतै, प्रायतै इति किं भवति, उत्तमपुरुष आत्मनेपदी धातु अस्ति, उत्तमपुरुष एकवचनं वन्दै इति अस्ति, तत्र प्रायतै इति अस्ति, तथैव कुरुष्व, कुरुष्व वन्दस्व, तत्र मध्यमपुरुषे एकवचनं, इदानीम् आरम्भावहै, वन्दावहै, आत्मनिपदि धातु उत्तमपुरुषे, तत्र लट्लकारे वन्दावहे वन्दामहे इति अस्ति, लोट्लकारे केवलं वन्दावहै वन्दामहै, हे स्थाने है इति भवति, हे नास्ति, है इति अस्ति, हलो हे है इति, अस्तु, हे है, अस्तु, तावदेव, अस्तु इति, अस्तु इति अपि लोट्लकाररूपम् अस्ति, तस्य किञ्चित् अहं वदामि, किन्तु अग्रे तत्र सर्वे सामान्यरूपं तस्य एव विषयः अस्ति, अतः एतत् तत्र हा अस्तु इति लोट्लकर अस् धातु तदपि किञ्चित् विशेषम् अस्ति तत्र अस् धातु तस्य रूपं किं भवति हा तत् अस्तु अथवा अस्तु अथवा स्थात् इति अस्ति तदनन्तरं स्थां सन्तु तदनन्तरं स्थात् अथवा एधि इति अस्ति स्तं स्थ तदनन्तरम् असानि असाव असाम इति अस्ति अस् धातु परस्मैपदीरूपम् अस्ति किन्तु अस्तु तत्र अस्तु इति अस्ति कीदृशरूपं तद् अस्तु लेट् इट् बि इट् इस् ओके ऐ अग्री ऐ एक्सेप्ट् इति लेट् दट् बि इति अस्तु तदेव वयं चिन्तयामः यस् इति हा अस्तु अस्तु ओके इति यद् वदामः तद् लोट्लकारः एव अस्ति तत्र अस्तु प्रथमपुरुष एकवचनरूपम् अस्ति पठतु इति रूपं तादृशरूपं किन्तु अस् धातोः रूपम् अस्ति अस्तु इति हा एकवारम् एतत् परस्मैपदी तस्य कोष्टकं तस्य रूपं पठितवन्तः एकवारम् आत्मनेपदी धातूनां रूपं कीदृशम् इति तत्र पठामः रमाजयन्ती भगिनी पठति वा तत्र पेज् 55 मध्ये भवान् वन्दताम् इति
प्रथमपुरुष एकवचनं भवान् वन्दताम् भवन्तौ वन्देताम् भवन्तः वन्दन्ताम् बहुवचनं मध्यमपुरुष एकवचनं त्वं वन्दस्व मध्यमपुरुष द्विवचनं युवां वन्देथाम् मध्यमपुरुष बहुवचनं यूयं वन्दध्वम् उत्तमपुरुष एकवचनं अहं वन्दै उत्तमपुरुष द्विवचनं आवां वन्दावहै उत्तमपुरुष बहुवचनं वयं वन्दामहै उत्तमपुरुष सर्वे ऐ ऐ ऐ शब्द सन्ति
भवति सत्यं भगिनि वन्दे वन्दावहे वन्दामहे इति अस्ति लट्लकारे किन्तु तत्र ऐ ऐ ऐ इति भवति एकार नास्ति इदानीम् ऐकारः एव भवति तत्र तदनन्तरं यत्र ध्व वन्दध्व इति अस्ति तत्र किं भवति वन्दध्वे इति अस्ति तत्र वन्दध्वम् इति भवति
महोदय
हा
एतानि रूपाणि लोट्लकारम् आत्मनेपदी वा
आम् सत्यं पेज् 55 यत् दत्तमस्ति तद् लोट्लकारम् आत्मनेपदी धातूनां साधारणधातूनां रूपम् अस्ति
आम् महोदय
हा तत्र वन्दते इति आत्मनेपदी धातु तस्य लोट्लकाररूपं तत्र पेज् 48 अपि पेज् तद् अपि पेज् 55 तत् पश्यतु तत्र वेदः रूपसमानं वेदः एकवारं पश्यामः तत्र किम् अस्ति वन्दते वन्देते प्रथमपुरुषे किं रूपम् अस्ति वन्दते वन्देते वन्दन्ते इति अस्ति लट्लकारे लोट्लकारे किम् अस्ति ते एते अन्ते इति अस्ति तत् ताम् एताम् अन्ताम् तावदेव समान रूपम् अस्ति किञ्चित् समानम् एव अस्ति हा तदनन्तरं मध्यमपुरुषे किम् अस्ति एदसे एदेथे एदध्वे इति अस्ति तत्र अथवा वन्दसे वन्देते वन्दध्वे अत्र वन्दस्व वन्धेतां वन्दध्वं वन्दसे वन्देते वन्दध्वे वन्दस्व वन्धेतां वन्दध्वम् इति भवति हा तत्र किञ्चित् समीपम् अस्ति हा लोट्लकारः अपि लट्लकारः
इदानीं
तत्र अभ्यास
एकं प्रश्नमस्ति महोदय. सो क्षम्यतां, लट् लकारं लोट् लकार भेदः. सो वन्दतां वन्देतां वन्दन्तां लोट् लकारः अस्ति, वन्दते वन्धेते वन्दन्ते लट् लकारः अस्ति वा?
आं सत्यं.
सो भेदः एक एक लट् लकार वर्तमानकाल, लोट् लकार भविष्यकाल. इति
न लोट् लकार भविष्यत्काल नास्ति भगिनि. लोट् लकार इत्युक्ते यत्र आज्ञा भवति अथवा प्रार्थना भवति. भवान् एतत् करोतु, भवान् एतत् पठतु, तत्र आज्ञा अथवा कमाण्ड् अथवा रिक्वेस्ट् अथवा एतत् यद्भवति तत्र तस्मिन् समये लोट् लकाररूपम् आवश्यकम् अस्ति. भगिनी भगिनी वदति इत्युक्ते भगिनी वदति, किन्तु अहं पृच्छामि रमाजयन्ती भगिनी वदतु, अत्र वदतु इति प्रार्थना इति अस्ति खलु, अतः लोट् लकाररूपम् आवश्यकम् अस्ति तत्र. आज्ञा वा प्रार्थना वा द्वयमपि, द्वयोः तत्र आज्ञासमये अथवा प्रार्थनासमये अपि लोट् लकाररूपम् आवश्यकम्.
ई लोट् लकाररूपम् उत्तमपुरुषसन्दर्भेन एकः प्रश्नः अस्ति महोदय. पत्नी पश्यानि करवाणि, सो कुत्र पश्यानि लोट् लकारमस्ति? ऐ डिन्ट् अण्डर्स्टाण्ड् द मीनिङ्ग्.
कुत्र पठानि इति वा? पठानि इति पठानि पठाव पठाम इति वा? अस्तु, उत्तमपुरुष किमर्थम् इति वा?
कं श्लोकं पठानि, वै केण्ट् वि से कं श्लोकं पठामि?
हा, तत्र पठानि इत्युक्ते विच् श्लोकं शुड् ऐ रीड् इति.
ओ, इट् इस् लैक् आज्ञा शुड्.
हा, विच् श्लोकं शुड् ऐ रीड्?
ओके.
हा, कं श्लोकं पठामि इति तत्र केवलं प्रश्नार्थकं भवति, किन्तु कं श्लोकं पठानि इति तत्र भेदः किं? विच् श्लोकं शुड् ऐ रीड्? हा,
अवगतमस्ति महोदय.
तत्र अन्यत् उदाहरणम् अहं वदामि, तत् पूर्वमेव उक्तवान्. अहं वर्गे अस्मि, किन्तु इदानीम् अहं गन्तुम् इच्छामि, किन्तु अहं केवलं विना उक्त्वा गन्तुं न इच्छामि. अहं पृच्छामि सर्वेभ्यः, अहं गन्तुम् इच्छामि, सर्वे अङ्गीकुर्वन्ति वा इति प्रश्नः कर्तुम् इच्छामि. तस्मिन् समये अहं किं पृच्छामि? अहं गच्छामि वा? केन् ऐ गो न केन् ऐ गो? हा हा, केवलम् अहं गच्छामि इत्युक्ते ऐ एम् गोयिङ्ग्, किन्तु केन् ऐ गो? हा, अहं गच्छामि वा
महोदय? अहं गच्छामि वा?
अस्तु भगिनि, सरल भगिनि, धन्यवादः भवती सम्यक् समये. धन्यवादः भगिनि, गच्छतु भगिनि.
महोदय धन्यवादः, अवगतमस्ति.
अस्तु भगिनि, हा अस्तु. अत्र एकं प्रसिद्धश्लोकः यदस्ति तद् एकवारम् अहं तत्रापि लोट् लकारस्य प्रयोगः एव अस्ति इति वक्तुम् इच्छामि अहं. तत्र सर्वे जानन्ति एतत् श्लोकः, पवमानमन्त्रः इति यत् वदामः, ॐ असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय इति. सर्वे जानन्ति खलु एतत् श्लोकम्? तत्र हा, अत्र असतो मा सद् गमय, गमय इति गच्छति इति अस्ति, किन्तु अत्र पठति पाठयति तादृशरूपमस्ति, गमयति. अहं अहं न गच्छामि, अन्यत् अन्यत् गमयामि. I'm getting somebody else to move. तत्र गमय इति किं भवति? पठ इति रूपं. गमय, सद्गमय, ज्योतिर्गमय, मृत्योर्मा अमृतं गमय इति. तत्र असतः इति पञ्चमी विभक्ति अस्ति. असतो मा सद्गमय. तत्र किं कुर्मः वयं? देवं प्रार्थनां कुर्मः. तत्र असतः अस्ति फाल्स्हुड् इति. ततः मा सद्गमय. सत्यं यत्र अस्ति तत्र मां मा गमयतु. तत्र मा इति रूपं किम् अस्ति? असतः इति पञ्चमीविभक्तिः अस्ति. मा इति सद्गमय इति क्रियापदमस्ति, लोट् लकारः. वयं पृच्छामः देवं, भगवान् त्वं सद्गमय. असतः सद्गमय. सो टेक् मी फ्रम् असतः टु सत्. मा इति अस्ति, सो टेक् मी इति अस्ति खलु. तत्र मा इत्युक्ते कीदृशपदं? कर्तृपदं वा कर्मपदं वा? कर्ता तु देवः अस्ति. टेक् मी, टेक् मी अस्ति खलु कर्मपदं. तत्र मा इति माम् अथवा मा, रूपद्वयम् अस्ति तत्र. अहम्, आवां, वयं, प्रथमाविभक्तिरूपं. द्वितीयाविभक्तिरूपं कर्मपदरूपं किम् अस्ति? अहं शब्दस्य, अस्मद् शब्दस्य, अहम्, आवां, वयं. किन्तु द्वितीयविभक्ति माम्, आवाम्, अस्मान् अथवा मा, मा अपि साधु अस्ति. माम् अथवा मा इति. अतः तत्र मा यत्र अस्ति तत् कर्मपदमस्ति. मा स्थाने माम् इति अपि वक्तुं शक्नुमः. किन्तु तत्र यत् प्रसिद्धं रूपमस्ति असतो मा सद्गमय. तमसो, तमसः अस्ति तमसो. तत् विसर्गसन्धि इति वदामः, तमसः तमसो इति. तमसो मा ज्योतिर्, ज्योतिः गमय. मृत्यो, मृत्योर्मा अमृतं गमय. तत्र मृत्योः इति अस्ति. मृत्योः अपि गुरुः अस्ति, गुरोः षष्टिविभक्तिरूपं जानीमः. किन्तु तत् पञ्चमविभक्तिः अपि अस्ति. मृत्युः अस्ति ततः, फ्रम् देर्. मृत्यो, मृत्योः मा अमृतम् गमय. तद् अपि लोट् लकारः एव अस्ति. अतः लोट् लकारः बहु प्रसिद्धः अस्ति. सर्वत्र वयं पश्यामः एतत् लोट् लकाररूपम्. अस्तु, गम् किन्तु गम् दातु, किन्तु गच्छति इति न, एतत् णिच् इति वदामः खलु, प्रेरणार्थकरूपम्. पठामि, पठामि, पाठयामि, गच्छामि, गमयामि. किन्तु तत्र गमयामि तस्य लोट् लकार अस्ति. गमय इति लोट् लकार, मध्यमपुरुष एकवचनरूपम्. अस्तु, अस्तु. इदानीं तत्र एतत् रूपस्य अभ्यासः कुर्मः. तत्र भानुचैतन्य महोदय, भवानपि अस्ति वा अत्र?
क्षम्यतां महोदय, अहं विलम्बेन आगतम्.
चिन्ता मास्तु, अहम् इदानीमेव दृष्टवान् भवान् अस्ति इति. अस्तु महोदय, पेज् 50 मध्ये तत्र एकवारम् अधोभागे पठति वा, तत्र उच्चैः पठत अवगच्छत च इति.
उच्चैः पठत अवगच्छत च. भवान् पश्यतु, भवन्तौ पश्यताम्, भवन्तः पश्यन्तु, भवान् आगच्छतु,
तत्र केवलं
आगच्छताम्.
तत्र तदनन्तरं त्वं लिख युवां, तत् पठतु महोदय.
युवां लिखतां, यूयं लिखत.
हा इति मध्यमपुरुषे एतद् रूपम् अस्ति. अस्तु अग्रे अग्रे तत्र अभ्यासः. हा
एकः सन्देहः
वदतु महोदय. हरि महोदय वदतु.
पुटसङ्ख्या 52 एवं 55 कोष्ठः भेदं किम्?
हा अस्तु महोदय, अत्र 52 पुटे यत् कोष्टकः अस्ति तत् परस्मैपदी धातु अस्ति, तस्य लोट् लकारः अस्ति. पठति पठतः पठन्ति, तत्र लोट् लकारः पठतु पठतां पठन्तु इति अस्ति. पुटसङ्ख्या 52 तदस्ति परस्मैपदी धातूनां लोट् लकारः, साधारण परस्मैपदी धातूनां लोट् लकारः. पेज् 55 मध्ये यदस्ति तद् साधारण आत्मनिपदी धातूनां लोट् लकारः. अत्र
परस्मैपदी आत्मनेपदी
आत्मनेपदी हा तत्र पेज् 52 मध्ये पट् इति परस्मै धातु, पेज् 55 मध्ये वन्द् इति आत्मनेपदी धातु.
आत्मनेपदी
धातु तस्य लोट् लकारः. अतः लोट् लकारः समये ज्ञानः भवितव्यमस्ति. एतद् क्रियापदं लट् लकार, एतत् क्रियापदं परस्मैपदी क्रियापदं वा आत्मनिपदी क्रियापदं वा इति. पठति खादति इति अस्ति चेत् पेज् 52 तस्य कोष्टकस्य उपयोगं करणीयं. वन्दते वर्धते खेदते इति अस्ति चेत् पेज् 55 तस्य उपयोगं करणीयम्.
अस्तु महोदय.
एतत् साधारणरूपम् अस्ति, विशेषरूपम् अग्रे पश्यामः, किन्तु एतदेव साधारणरूपम्. अस्तु तत्र भानुचेतनी महोदय अग्रिमपुटे भानुचेतनी महोदय पेज् 52 तत्र चतुर्थ अभ्यासः यदस्ति तद् किञ्चित् कुर्मः तत्र.
हसामि, अहं हसामि, अहं हसामि, आवां हसावः, आवां हसाव, वयं हसामः, वयं हसाम, अहं पचामि, अहं पचामि, आवां पचावः, आवां पचाव, वयं पचामः, वयं पचाम, अहं तरामि, अहं तरामि, आवां तरावः, आवां तराव, वयं तरामः, वयं तराम, अहं भवामि, अहं भवानि, आवां भवावः, आवां भवाव, वयं भवामः, वयं भवाम.
धन्यवादः महोदय, धन्यवादः. इदानीं नरेश महोदय तत्र चतुर्थ अभ्यासे तत्र एव पेज् 52 मध्ये तत्र क्रीडति क्रीडतु इति यत् अस्ति तत्र नमति इति तत् स्वीकृत्य रूपं वदतु लोट् लकार नमति इति. भवान् नमतु इति किन्तु प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष सर्वं वदतु. भवान् नमति
नमति नमतु नमतां नमन्तु
नरेश महोदय भवान् इति भवान् नमतु भवन्तौ नमताम् इति तादृश वदतु कृपया.
भवान् नमतु भवन्तौ नमतां भवन्तः नमन्तु.
इदानीं त्वम् इति त्वम् अपि त्वं युवां यूयम् अहम् आवां वयं सर्वं नमतु इति एव.
त्वं नम युवां नमतं यूयं नमत
अहम् नमानि अवाम् नमाव वयम्
नमाम समीचीनं महोदय. संध्या भगिनी तत्र रक्षति इति अस्ति
महोदय. एकं प्रश्नः अस्ति महोदय.
महोदय
अहं पेज् 52 मध्ये अस्मि भगिनी, किन्तु तत्र क्रियापदं स्वीकृत्य लोट्लकाररूपम् एकवारं वदतु इति अभ्यासं कुर्मः तावदेव.
लोट्लकारम् अहम् अवगतमस्ति महोदय. नमति नमतु नमतु लोट्लकारं नमति परस्मैपदी.
आमामाम् एतत् पेज् 52 मध्ये यदस्ति तत् परस्मैपदी लोट्लकारः अस्ति.
हा भेदः.
हा पेज् 55 मध्ये यदस्ति तद् आत्मनेपदी लोट्लकारः.
अहम् अवगतामि महोदय, धन्यवादः.
पेज् 52 परस्मैपदी, पेज् 55 आत्मनेपदी लोट्लकारः.
अस्तु महोदय, धन्यवादः.
भानुभगिनी अवगतं वा यत् कुर्मः?
आं महोदय अवगतम्.
अस्तु
अस्तु महोदय.
संध्या भगिनी करोतु भगिनी. रक्षति इति तत्र भवान् रक्षतु इति तादृश कोष्टके यदस्ति तदेव उपयुज्य, किन्तु पठतु यदस्ति तत्र रक्षतु इति तदेव वक्तव्यम् अस्ति भगिनि.
भवान् रक्षतु, भवन्तौ रक्षतां, भवन्तः रक्षन्तु, त्वं रक्षत,
रक्ष, त्वं रक्ष,
रक्ष, युव, युवं रक्षतां,
युवां,
युवां रक्षतं, यूयं रक्षत.
समीचीनं.
रक्षाणि, आवां रक्षाव, वयं रक्षामः.
समीचीनं भगिनि. अस्तु धन्यवादः. हरिमहोदय अग्रे तत्र भ्रमति इति अस्ति.
भवान् भ्रमतु, भवन्तौ भ्रमतां, भवन्तः भ्रमन्तु, त्वं भ्रम, त्वां भ्रमतं, यूयं भ्रमत, अहं भ्रमतानि,
भ्रमाणि, भ्रमाणि,
भ्रमाणि, अहं भ्रमाणि, आवां भ्रमाव, वयं भ्रमाम.
समीचीनं महोदय. भानुभगिनी इदानीं तत्र त्यजसि इति अस्ति, तत्र त्यजतु, भवान् त्यजतु इति वदतु भगिनि.
भवान् त्यजतु, भवन्तौ त्यजतां, भवन्तः त्यजन्तु, त्वं त्यज, युवां त्यजतं, तूयं त्यजत, अहं त्यजानि, आवां त्यजाव, वयं त्यजाम.
समीचीनं भगिनि, धन्यवादः. अस्तु
महोदय. अत्र उत्तमपुरुष एकवचनं प्रश्नः अस्ति वा? अहं हसानि प्रश्नः वा अथवा अहं?
साधारणतया प्रश्नः एव भवति तत्र भगिनि. अहं हसानि वा इति तादृश प्रश्नः एव भवति. केन् ऐ स्मैल्?
शुड् नास्ति. तर्हि ऐ शुड् स्मैल्?
शुड् ऐ स्मैल्? तत्र शुड् ऐ स्मैल् इति, सो वी आर् टेकिङ्ग्, वी आर् आस्किङ्ग् फार् पर्मिशन्, तदेव सन्दर्भः भवति. केन् ऐ स्मैल्? शुड् ऐ स्मैल् इति. तत्र रक्षति इति भवती कृतवती खलु, भवती रक्षति इति कृतवती खलु. अस्तु, कोऽपि अस्ति तस्य रक्षणं करणीयं न वा इति प्रश्नः अस्ति. भवती चिन्तयति तस्य रक्षणं करणीयं न वा इति. अतः भवती अन्यान् पृच्छति
करणीयं शब्दः अत्र करणीयम् अथवा
न करणीयं करोमि इति भवती चिन्तयति. शुड् ऐ भवती चिन्तयति करोमि न करोमि इति. तत्र केवलं भवती प्रश्नं करोति. एकनिमिषः. इट् इस् नाट् यु आस्क् युवर् सेल्फ् शुड् ऐ डू इट् आर् नाट् इति न. शुड् ऐ हेल्प् शुड् ऐ प्रोटेक्ट् इति. हा तस्मिन् सन्दर्भे अन्य कोऽपि यु आर् आस्किङ्ग् सम्बडि एल्स् सो शुड् ऐ प्रोटेक्ट् हिम् ओर् दिस् पर्सन् तस्मिन् सन्दर्भे भवती वदति अहं एतं रक्षामि वा.
तर्हि सदा प्रश्नेन एव
भवति भगिनि. अहं करणीयं तत्र प्रश्नः नास्ति. अत्र करणीयं न वा इति सन्दर्भे एतत् रूपं भवति. साधारणतया प्रश्नः एव अहं दृष्टवान्. अहं अन्यद् रूपं न दृष्टवान्. किन्तु नास्ति इति चिन्तयामि. केवलं प्रश्नरूपमेव दृष्टवान् अहम्. अस्तु अस्तु रामनाथ महोदय अग्रे स्पृशति इति. भवान् स्पृशसि भवान् स्पृशतु इति स्पृशतु इति भवान् स्पृशतु समीचीनं महोदय. अस्तु नरेश महोदय कूजसि इति. कूजति भवान् कूजतु
भवान् कूजतु भवन्तौ कूजतां भवन्तः कूजन्तु त्वं कूज युवां कूजतं यूयं कूजत अहं कूजानि आवां कूजाव वयं कूजाम.
समीचीनं महोदय. रघुपति आचार्य महोदय तत्र पच्छा भवान् पचतु इति.
भवान् पचतु भवान् पचतु भवन्तौ पचतां भवन्तः पचन्तु त्वं पच युवां पचतं यूयं पचत अहं पचामि आवां पचाव वयं पचाम.
समीचीनं. रमजयन्ति भगिनि अग्रे तरां भवान् तरतु इति.
अस्तु महोदय. भवान् तरतु भवन्तौ तरतां भवन्तः तरन्तु त्वं तर युवां तरतं यूयं तरत अहं तरामि आवां तराव वयं तराः.
समीचीनम्. अस्तु कः न सर्वे कृतवन्तः इति मन्ये. भानचेतनी महोदय तत्र भवान् भवतु इति तदेकवारं सर्वं वदतु महोदय. भानचेतनी महोदय अस्ति वा. अस्तु सन्ध्या भगिनी भवती एव करोति वा. भवान् भवतु इति.
भवान् भवतु भवन्तौ भवतां
भवन्तः भवन्तु भव युवां भवतं यूयं भवत अहं भवानि आवां भवा वयं भवाम
हा समीचीनं भगिनि धन्यवादः हा अत्र अन्यविषयः अपि वक्तुमिच्छामि तत्र इदानीं भव भू धातुः भवतु एतद् दृष्टवन्तः तत्र एकवचने उत्तमपुरुषे एकवचने रूपं किम् आसीत् पठानि इति अस्ति किन्तु भवशब्दस्य तत्र किं भवतु भवति इति क्रियापदे
तत्र
भवानि हा तत्र यदि आदिशङ्कराचार्यस्य
भवानी
स्तोत्रं तत्र भवानी इति तत् लोट् लकाररूपम् अस्ति भवानी इति देव्याः नाम अस्ति अपि भवानी इति लोट् लकार क्रियापदम् अपि अस्ति अत्र तत्र विशेषतया तत्र उपयोगं कृतमस्ति आदिशङ्कराचार्य तत्र भवानी इति तद् तत्र कृपया पश्यतु तत् भवानी इति श्लोके
महोदय एकवारं पुनः कृपया वदतु भवानी आदिशङ्कराचार्य विशेषरूपेण कथं प्रयोगं कृतवान्
हा तत्र भवानी त्वम् इति अस्ति भगिनि तत्र श्लोके हा तत्र भवानीति देव्याः नाम अस्ति सः प्रार्थना करोति भवानी इति किन्तु भवानी त्वम् इति भवानी त्वम् इति तत्र केन् ऐ बिकम् यु इति अहं त्वं भवानी अहं त्वं भवानी वा इति आङ्ग्लभाषायां वदामि भगिनि सो हि इस् प्रेयिङ्ग् टु द गाडेस् एण्ड् हि इस् आल्सो आस्किङ्ग् भवानी हि इस् अड्रेसिङ्ग् द गाडेस् भवानी बट् हि इस् आल्सो आस्किङ्ग् भवानी त्वम् अहं त्वं भवानी वा इति केन् यु मेक् मी इन् युर् फार्म् केन् ऐ बिकम् यु इति
know the line mahodaya I'm not able to understand that can I be you kind of that line
bhavani tyukte kim bhavatu it means what be that
be that
bhavati iti it is
so bhavani is that lotlakara
lotlakara uttama purusha ekavachanam
ekavachanam oh you use it in that okay
haan. So, see, so, we, you know, so for instance, if you wanted to say, Atra, Sanskriti Ina Vadami, Purvasmin Sambhashani Kim Abhavat, Tatra Ramanatha Mohadiya Pita Iti Asit, Naresh Mohadiya Putraha Iti Asit, Khalu? Aham Kim Uktavan, Ramanatha Mohadiya Bhavan Pita Bhavatu, नरेश महोदय भवान् पुत्रः भवतु
अस्तु महोदय
तत्र भवतु इति लोट्लकाररूपम् इदानीं भवानी अहं भवानी त्वम् इति लोट्लकार किन्तु तद् भवानि त्वमेव प्रथम पङ्क्तिः अस्ति इति मन्ये भवानि त्वम् इति
न माता न बन्धुर्न दाता
न तद् तद्
गतित्वं गतित्वं तमेक भवान्
तदपि समीचीनं हा त्वमेका भवानि तत् भवानी भवानी श्लोकमेव अस्ति. हा समीचीनं महोदय, धन्यवादः. हा न माता न बन्धु त्वमेका भवानी. हा अस्तु, तत्र भवानी इति शब्दस्य एकमस्ति नामपदम्, अन्यत् अस्ति क्रियापदं लोट् लकारः इति. अस्तु अस्तु, इदानीं तत्र अस्ति अस्तु इति विषयस्य अपि किञ्चित् वयं चर्चितवन्तः. इदानीं प्रथमं विषयः अस्ति परस्मैपदी धातूनां लोट् लकाररूपं. तद् तस्य अभ्यासः एव इति चिन्तयामः इदानीं. अग्रिमवर्गे वयम् आत्मनेपदी धातूनां अभ्यासं कुर्मः, किन्तु अद्य केवलम् एतदेव अस्ति, पठतु पठताम् इति यदस्ति तस्य एव कुर्मः. तत्र अहं पुनरेकवारं अभ्यासं कर्तुम् इच्छामि. अस्तु, तत्र भानुभगिनी पश्यतु इति, पश्यतु इति तस्य लोट् लकाररूपम् एकवारं वदतु भगिनि. केवलं पश्यतु, भवान् कोऽपि नास्ति, किमपि नास्ति, केवलं क्रियापदं पश्यतु, पश्यतां,
पश्यतु, पश्यतां, पश्यन्तु, पश्य, पश्यतं, पश्यत, पश्यानि, पश्याव, पश्याम.
हा समीचीनं भगिनि. इदानीं सन्ध्या भगिनी हरति इति,
हरतु, हरतां, हरन्तु, हरतं, हरत, हराणि,
हराणि, हराम. समीचीनं भगिनि. हा अस्तु, हरि महोदय, गायामि इति, गायति,
गायतु, गायतां, गायन्तु, गाय, गायतं, गायत, गायानि, गायाव, गायाम.
हा समीचीनम्. अस्तु, अग्रे नरेश महोदय, वर्णयति,
वर्णयतु, वर्णयतां, वर्णयन्तु, वर्णय, वर्णयतं, वर्णयत, वर्णयान्, वर्णयाव, वर्णयाम.
समीचीनम्. हा रामनाथ महोदय, आगच्छतु इति,
आगच्छतु, आगच्छताम्, आगच्छन्तु, आगच्छ, आगच्छतम्, आगच्छत, आगच्छानि, आगच्छाव, आगच्छाम.
हा समीचीनम्. रघुपति महोदय, उपविशतु इति,
उपविशतु, उपविशताम्, उपविशन्तु, उपविश, उपविशतम्, उपविशत, उपविशानि, उपविशाव, उपविशाम.
हा समीचीनं महोदय. भानुचेतनि महोदय वक्तुम् इच्छति वा?
आं महोदय.
अस्तु, तत्र एतत् पश्यतु इति करोतु.
पश्यतु, पश्यतां, पश्यन्तु, पश्य, पश्यतं, पश्यत, पश्यानि, पश्याव, पश्याम.
हा तावदेव अस्ति. अस्तु, हा इदानीम् अहं प्रश्नं पृच्छामि. समयः जातः, विरमाम वा इति, किं भवति तत्?
विरमाम,
हा वयं विरमाम वा,
विरमाणि,
अथवा अहं विरमामि वा इति, विरमाम, वयं विरमाम वा, सर्वे किं वदन्ति? आम् अस्तु, विरमामः. समीचीनं, विरमामः, समीचीनं. अस्तु, अग्रिमवर्गे मिलामः. सर्वेभ्यो नमस्कारः, धन्यवादः.
धन्यवादः,
हरि ओं महोदय, धन्यवादः,
हरि ओम्.